इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः प्रोक्तवती यत् भारतीय नागरिकाः पुर्तगालदेशे चतुर्थस्य बृहत्तमस्य समुदायस्य प्रतिनिधित्वं कुर्वन्ति, ये द्वयोः संस्कृत्योः मध्ये सेतुत्वेनापि कार्यं निष्पादयन्ति, अपि च देशस्य अर्थव्यवस्थायां महत्वपूर्णं योगदानं ददति। राष्ट्रपति पदासीनायै द्रौपदी मुर्मू इत्येतस्यै ह्यः ऐतिहासिके कैमारा म्युनिसिपल डे लिस्बोआ स्थले लिस्बन नगरस्य महापालिकाध्यक्षेण नगरस्य की ऑफ ऑनर इतीदं सम्मानं प्रदत्तम्। समारोहं सम्बोधयन्ती राष्ट्रपतिना निगदितं यत् वसुधैव कुटुम्बकम् इत्येतस्य मन्त्रस्य आलोकेन अपि च 47.2 वर्षं यावत् विकसित भारतस्य निर्माणदृष्ट्या निर्दिष्टं भारतम् एकस्य स्थायिविश्वस्य दिशि कार्यं निरन्तरं कुर्वदस्ति। अस्यां यात्रायाञ्च पुर्तगालदेशं विश्वसनीय सहभागिनः रूपेण द्रक्ष्यति। इतः पूर्वं ह्यः राष्ट्रपतिः मुर्मुः लिस्बन नगरे स्वकीयेन समकक्षेण मार्सेलो रेबेलो डिसूसा इत्यमुना साकं प्रतिनिधिमण्डलस्तरीयां वार्तामपि साधितवती। दुबय्याः युवराजः उपप्रधानमन्त्री संयुक्तारबामीरातस्य रक्षामन्त्री च शेख हमदान बिन मोहम्मद अल मक्तूम अद्यारभ्य भारतस्य द्विदिवसीय यात्रायाम् अस्ति इति सूच्यते। युवराजत्वेन तस्य इयं प्रथमा आधिकारिकी भारतयात्रा स्यादिति। विदेशमन्त्रालयेन प्रख्यापितं यत् प्रधानमन्त्री नरेन्द्रमोदी युवराजाय मध्याह्नभोजनस्य आतिथ्यं करिष्यति। यात्रारतः एषः विदेशमन्त्रिणा डॉ एस जयशंकरेण रक्षामन्त्रिणा राजनाथसिंहेनापि मन्त्रणां विधास्यति। वित्तमन्त्री निर्मला सीतारामन इत्येषा यूरोपमहाद्वीपस्य 6-दिवसीय यात्रायां ह्यः सायंकाले लन्दन नगरं सम्प्राप्तवती। वित्तमन्त्रिणः इयं यात्रा अद्यारभ्य अस्य मासस्य 13-दिनांकपर्यन्तं प्रचलिष्यति, यस्मिन् ऑस्ट्रिया देशस्य यात्रापि सम्मिलितास्ति। सुश्री सीतारामन इत्येषा अद्य लन्दन नगरे भारतीयोच्चायोगे एकेन सम्भाषिक सत्रेण सह स्वब्रिटेन यात्रां सम्पूरयिष्यति। रक्षामन्त्रालयेन MI-17V5 उदग्रविमानयानानां कृते इलेक्ट्रॉनिक वारफेयर सूट इत्येतस्य विमानपरिवर्तन किट्स इत्येतस्य च क्रयणार्थं बेंगलुरुनगरस्य भारत इलेक्ट्रॉनिक लिमिटेड इत्येतेन सह 85.3 crore rupees अनुबन्धः हस्ताक्षरितः। एतत् अत्याधुनिकं इलेक्ट्रॉनिक्स वारफेयर सूट इतीदं प्रतिकूलवातावरणे उदग्रविमानयानानां प्रचालनात्मक जीवनक्षमतां संवर्धयिष्यति। केन्द्रीय गृहमन्त्री अमितशाहः ह्यः सायं श्रीनगरं सम्प्राप्तवान्। श्रीनगर विमानपत्तनस्थानके उपराज्यपालः मनोजसिन्हाः मुख्यमन्त्री ओमार अब्दुल्ला इत्यसौ च आस्ताम्। श्रीशाहः मुख्यमन्त्रिणा अब्दुल्ला इत्येतेन सह आरक्षकोपाधीक्षकस्य हुमायूं मुजामिल इत्येतस्य आवासं प्रति गतवान्, यो हि 23.2 वर्षे सितम्बर मासे 13-दिनांके आतंकप्रहारे वीरगतिं प्राप्तवान् आसीत्। अमेरिकीय राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन निगदितं यत् अमेरिकादेशः ईरान देशस्य परमाणु कार्यक्रम विषये तेन सह प्रत्यक्ष संवादं साधयिष्यति। अनेन तेहरान नगरं प्रत्यादृष्टं यत् यदि वार्ता विफला भवति तर्हि महतीं हानिं सम्मुखीकरिष्यति अयं देशः। आईपीएल क्रिकेट मालिकायां ह्यः रात्रौ मुम्बय्याः वानखेड़े क्रीडांगणे रॉयल चैलेंजर्स बैंगलुरु दलेन मुम्बई इंडियंस दलं 12 धावनांकैः पराभूतम्। सर्वकारेण पेट्रोल डीजल इंधनयोः उत्पादशुल्के प्रतिलीटर मितं प्रति 2 रूप्यकयोः वृद्धिः कृतास्ति। इति वार्ताः।